इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य राजधान्यां नवदिल्ल्यां विविध विकास परियोजनानां लोकार्पणं शिलान्यासं च अकरोत्। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य बेंगलुरुनगरे निमहांस इति राष्ट्रिय मानसिक स्वास्थ्य तंत्रिका विज्ञान संस्थानस्य स्वर्ण जयंती समारोहे मुख्यातिथित्वेन उपस्थिता। केन्द्रीयः रेल सूचना प्रसारणम् अथ इलेक्ट्रॉनिक्स सूचना प्रौद्योगिकी मंत्री अश्विनी वैष्णवः अद्य असमस्य गुवाहाट्यां नैकासां परियोजनानां शुभारम्भम् अकरोत्। देशस्य उत्तर भागे प्रबल कुज्झटिका कारणेन दृश्यतायां नैयून्य कारणेन नैकेषां विमानानां रेलयानानां च गमनागमनं प्रभावितम्। अपि च भारत ऑस्ट्रेलिया दलयोः मध्ये अनुवर्तमानायाः क्रिकेट श्रृंखलायाः पञ्चमान्तिम स्पर्धायाम् अद्य प्रथमे दिने क्रीडावसानं यावत् ऑस्ट्रेलिया दलेन एकस्य क्रीडकस्य हानौ नव धावनांकाः अधिगताः। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी अद्य राजधान्यां नवदिल्ल्यां विविध विकास परियोजनानां लोकार्पणं शिलान्यासं च अकरोत्। असौ दिल्ल्याः अशोक विहार क्षेत्रे 700+ नव निर्मित गृहाणाम् उद्घाटनं विधाय पात्रेभ्यः लाभार्थिभ्यः कुञ्जिका प्रदानम् अकरोत्। अस्याः परियोजनायाः उद्देश्यम् अनियमितावासेषु वास्तव्यानां जीवने सुख सम्पत् प्रदानं विद्यते। अत्रावसरे श्रीमोदिना दिल्लीनगरस्य द्वे पुनर्विकास परियोजने अपि नौरोजी नगरे लोकार्पिते। प्रधानमन्त्रिणा दिल्ल्याः द्वारकायां 300 कोटिरूप्यकैः निर्मितस्य केन्द्रीय माध्यमिक शिक्षा बोर्ड इत्यस्य एकीकृत कार्यालय परिसरस्य दिल्ली विश्वविद्यालये च 600 कोटिरूप्यकैः 3 परियोजनाः आरब्धाः। प्रधानमन्त्रिणा दिल्ल्याः सूरजमल विहारे पूर्व परिसरे अकादमिक इति खण्डस्य द्वारकायां पश्चिम परिसरे अपि अकादमिक इति खण्डस्य आधारशिले स्थापिते। सममेव श्रीमोदिना नजफगढ़स्य रोशनपुरायाः वीर सावरकर महाविद्यालयस्य अपि आधारशिला स्थापिता। अनन्तरं जनान् सम्बोधयन् श्रीमोदी समेभ्यः नववर्षस्य शुभकामनाः अपि प्रदत्तवान्। अमुनोक्तं यत् इदं वर्षं भारताय वैश्विकमञ्चेषु नूतनोपलब्धीनां वर्षं भविष्यति।
ये वर्ष भारत को दुनिया का बड़ा मैन्युफैक्चरिंग हब बनाने का वर्ष होगा। ये वर्ष युवाओं को नए स्टार्टअप और एंटरप्रेन्योरशिप में तेजी से आगे बढ़ाने का वर्ष होगा। ये वर्ष कृषि क्षेत्र में नए कीर्तिमानों का वर्ष होगा। ये वर्ष वुमेन लेड डेवलपमेंट के हमारे मंत्र को नई ऊंचाई देने का वर्ष होगा। ये वर्ष ईज ऑफ लिविंग बढ़ाने क्वालिटी ऑफ लाइफ बढ़ाने का वर्ष होगा।
प्रधानमन्त्रिणा उक्तं यत् प्रशासनस्य प्रयासः वर्तते यत् दिल्ल्याः छात्रेभ्यः दिल्ल्याम् एव भद्रतर शिक्षावसराः उपलब्धाः स्युः। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य बेंगलुरुनगरे निमहांस इति राष्ट्रिय मानसिक स्वास्थ्य तंत्रिका विज्ञान संस्थानस्य स्वर्ण जयंती समारोहे मुख्यातिथित्वेन उपस्थिता। अत्रावसरे राष्ट्रपतिः नूतन मनोचिकित्सा खण्डस्य केन्द्रीय प्रयोगशाला परिसरस्य छात्रावास भवनस्य च उद्घाटनं कृतवती। राष्ट्रपतिना बेलगावी इत्यत्र अत्याधुनिकस्य कर्करोग चिकित्सालयस्य अपि उद्घाटनं कृतम्। अस्मिन् अवसरे राष्ट्रपतिः द्रौपदी मुर्मुः अवोचत् यत् महिलाः प्रत्येकं क्षेत्रे अग्रे वर्धन्ते, सामाजिकोत्थाने च महत्वपूर्णां भूमिकां निभालयन्ति।
focus on mental health promotions will become even more important in the years ahead. Women can add a unique perspective in mental health care, in caregiving, as well as in research.
सममेव राष्ट्रपतिना मानसिक स्वास्थ्य तंत्रिका विज्ञानस्य क्षेत्रे प्रशंसनीय कार्याय निमहांस इति संस्थानं वर्धापितम्। केन्द्रीय स्वास्थ्य मंत्री जेपी नड्डा वर्यः अपि आघातोपचाराय आत्महत्यावरोधाय मादकद्रव्य सेवनेन च पीडित जनानां सहायतार्थं निमहांस संस्थानस्य योगदानं श्लाघयत्। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। उपराष्ट्रपतिः जगदीप धनखड़ः अवदत् यत् वैश्विकानुशासनं देशस्य प्राचीनज्ञानं वेदान्तदर्शनं च अंगीकुर्वन्ति। सः अवदत् वेदान्तः दर्शनात् बहुपरः अस्ति तथा च मानवचेतनायाः निदर्शनम् अस्ति। उपराष्ट्रपतिना अद्य नवदिल्ल्याः जवाहरलालनेहरू विश्वविद्यालये 27वें अन्ताराष्ट्रियवेदान्तसम्मेलनस्य उद्घाटनस्य अध्यक्षता कृता। अस्मिन् अवसरे प्रवदन् श्रीधनखड़ः अवदत् यत् वेदान्तः देशस्य कालातीतनिधिः, वेदानां सारः अथवा उपसंहारः च अस्तीति। केन्द्रीयः रेलसूचनाप्रसारणम् अथ इलेक्ट्रॉनिक्स सूचनाप्रौद्योगिकी मन्त्री अश्विनी वैष्णवः अद्य असमस्य गौहाट्यां नैकासां परियोजनानां शुभारम्भम् अकरोत्। आभिः परियोजनाभिः असमराज्ये सम्पर्कं समेधितुम्, आधारभूतसंरचनायाः विकासं च वर्धितुं साहाय्यं भविष्यति। असौ गुवाहाटी रेलस्थासनात् गुवाहाटी न्यू लखीमपुर जनशताब्दी एक्सप्रेस रेलयानाय, न्यू बोंगाईगांव गुवाहाटी पैसेंजर रेलयानाय, तिनसुकिया नाहरलागुन एक्सप्रेस रेलयानाय च हरितध्वजं प्रदर्शितवान्। तत्रैव केन्द्रीय मंत्री गुवाहाटी नगरे तेतिलिया आरओबी इत्यस्य लोकार्पणम् अपि अकरोत्।
मोदी जी ने लुक ईस्ट पॉलिसी को बदला एक्ट ईस्ट में, और एक्ट ईस्ट के कारण बहुत बड़ा इन्वेस्टमेंट नॉर्थ ईस्ट के लिए आया। मैं पूरे अष्टलक्ष्मी स्टेट्स का अगर कहूं तो जहां 2013-14 में 24,000 करोड़ रुपीस का बजट था, 2024-25 में 5 गुना बढ़ के 1,25,000 करोड़ का अष्टलक्ष्मी स्टेट्स के लिए बजट है।
एतदतिरिच्य केन्द्रीय मन्त्री आकाशवाणी कोकराझार इत्यत्र 10 किलोवाट एफएम ट्रांसमीटर इत्यस्य उद्घाटनेन समं नेशनल इंस्टीट्यूट ऑफ इलेक्ट्रॉनिक्स एंड इन्फॉर्मेशन टेक्नोलॉजी इति मानित विश्वविद्यालयस्य आभाषिकं उद्घाटनं कृतवान्। केन्द्रीय मन्त्री जागी रोड स्थितस्य टाटा सेमीकंडक्टर फैक्ट्री इति उद्योग परिसरम् उपेत्य पूर्वोत्तर सीमांत रेल विभागस्य अनुवर्तमानानां परियोजनानां समीक्षाम् अपि अकरोत्। अद्य महान शिक्षाविदोः सावित्रीबाई फूले महोदयायाः जयन्ती वर्तते। प्रधानमंत्री नरेन्द्र मोदी तस्मै श्रद्धांजलिं समर्पितवान्। एकस्मिन् सामाजिक संचारपटले प्रधानमंत्री अलिखत् यत् सावित्रीबाई फूले महिला सशक्तिकरणे, शिक्षायां, सामाजिकोन्नयनस्य च क्षेत्रे प्रेरणास्रोत रूपा मार्गदर्शिका च अवर्तत। देशस्य उत्तरभागे प्रबलकुज्झटिका कारणेन दृश्यतायां नैन्यून कारणेन नैकासां विमानानां रेलयानानां च गमनागमनं प्रभावितम्। अस्माकं वार्ताहरेण सूचितं यत् राजधान्यां नवदिल्ल्यां इंदिरा गांधी अंतर्राष्ट्रीय विमानपत्तने स्वल्प दृश्यता कारणेन 50 विमान सेवासु विलंबो जातः। भारत ऑस्ट्रेलिया दलयोः मध्ये अनुवर्तमानायाः क्रिकेट श्रृंखलायाः पंचमान्तिम स्पर्धायाम् अद्य प्रथमे दिने क्रीडावसानं यावत् ऑस्ट्रेलिया दलेन एकस्य क्रीडकस्य हानौ 9 धावनांकाः अधिगताः। इतः पूर्वं भारतेन पणकं विजित्य प्रथम पर्याये 85.1% धावनांकाः अधिगताः इति वार्ताः।